इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य मुम्बई नगरे फ्रांस देशस्य राष्ट्रपतिना इमैनुअल मैक्रोन इत्यनेन सह मिल्यात्। मेलनावधौ द्वौ नेतारौ भारत फ्रांस सामरिक सहभागित्वस्य प्रगतिं वीक्ष्य क्षेत्रीय वैश्विक महत्वस्य विषयेषु विचार विनिमयं करिष्यतः। एषा यात्रा राष्ट्रपतिः मैक्रोन वर्यस्य भारतं प्रति चतुर्थ यात्रा, मुम्बई नगरस्य च प्रथम यात्रा भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः अवोचत् यत् संताली भाषायाः औल्चिकी लिप्याः संरक्षणार्थं प्रचारार्थं च प्रयत्नः करणीयः। नवदिल्ल्यां औल्चिकी लिप्याः शतवार्षिक समारोहं सम्बोधयन्ती राष्ट्रपतिः मुर्मुः अवोचत् यत् औल्चिकी संताली समुदायस्य प्रबलो परिचयः अस्ति इति। राष्ट्रपतिः अवदत् यत् औल्चिकी लिपिः न केवलं देशे अपितु विश्वव्यापी रूपेण अपि विस्तृता वर्तते।
औल्चिकी को समृद्ध बनाने में जिनका योगदान है, जिनको सम्मानित किया गया है, केवल इतने ही नहीं, ये तो केवल सिंबॉलिक उनको सम्मानित किया गया। मुझे लगता है लाखों लाखों ऐसे संथाल भाई बहन है जो औल्चिकी को समृद्ध करने में जुटे हैं। बहुत सारे किताबें, लाखों किताबें और लिखे हैं। मुझे लगता है जहाँ ओडिशा, वेस्ट बंगाल, आसाम में ये औल्चिकी में यूनिवर्सिटी तक पढ़ाई हो रहा है।
भारत एआई इम्पैक्ट शिखर सम्मेलनम् नवदिल्ल्यां आरभत। पञ्चदिवसीयम् एतत् शिखर सम्मेलनम् ग्लोबल साउथ इत्यत्र आयोजितम् प्रथमं वैश्विक एआई शिखर सम्मेलनम् वर्तते। एतत् शिखर सम्मेलनम् वैश्विक एआई कार्यसूचीं निर्माय प्रमुख मञ्चरूपेण भारतस्य भूमिकां सुदृढां करिष्यति। शिखर सम्मेलने शतं देशाः आमन्त्रिताः, 2,00,000 अधिकाः जनाः च अन्तर्जालीय माध्यमेन पञ्जीकरणं कृतवन्तः। 20 देशानां विश्वनेतारः अस्मिन् कार्यक्रमे भागं गृह्णन्ति। विदेशमन्त्रालयः अवोचत् यत् बोलीविया, क्रोएशिया, एस्टोनिया, फिनलैंड, ग्रीस, गयाना, स्लोवाकिया चेत्यादीनां देशानां नेतारः अपि अस्मिन् सम्मेलने भागं गृह्णन्ति। प्रधानमन्त्री श्रीनरेन्द्र मोदी प्रोक्तवान् यत् देशवासीनां कृते एषः अतीव गौरवास्पदो विषयः यत् इण्डिया एआई इम्पैक्ट समिट इत्यस्य कृते समग्र जगतः जनाः भारतं प्रति समागच्छन्ति। सामाजिक संजाल माध्यमेन श्रीमोदी वर्यः शिखर सम्मेलनाय विश्वनेतृभ्यः, उद्योगनेतृभ्यः, नवान्वेषकेभ्यः, नीति निर्मातृभ्यः, शोधकर्तृभ्यः, तन्त्रज्ञान प्रेमिभ्यः च स्वागतपूर्वकं वर्धापनं प्रायच्छत्। अयं देशः विज्ञान तन्त्रज्ञान क्षेत्रे द्रुतगत्या प्रगतिं कुर्वन् अस्ति इति प्रमाणं वर्तते। वैश्विक विकासाय महत्वपूर्णं योगदानं अनेन प्रदत्तम् इत्यपि श्रीमोदी प्रत्यपादयत्। प्रधानमन्त्री उक्तवान् यत् अयम् अवसरः देशस्य युवकानां क्षमताम् अपि दर्शयति। सः इत्यपि अधोरेखितवान् यत् सम्मेलनस्य विषयः सर्वजनहिताय, सर्वजनसुखाय अथवा सर्वेभ्यः कल्याणाय, सर्वेभ्यः सुखाय इति वर्तते। यः मानवकेन्द्रित प्रगतिं साधयितुं कृत्रिमबुद्धिम् उपयोक्तुं देशस्य सहभागितां प्रतिबद्धतां च प्रतिबिम्बयति। केन्द्रीय गृहमन्त्री अमित शाहः अद्य गांधीनगरे राज्यानां केन्द्रशासित प्रदेशानां च सहकार मन्त्रिणाम् उच्चस्तरीय मन्थनसभायाः आध्यक्षं विधास्यति। सहकार मन्त्रालयः अवदत् यत् अयं मञ्चः मन्त्रालयस्य प्रमुख उपक्रमाणां विस्तृत समीक्षां कर्तुं, प्रगत्याः मूल्यांकनं कर्तुं, राज्यानां उत्तम अभ्यासानां अनुभवानां च आदान प्रदानम् अपि च भविष्यस्य कृते समन्वित मार्गचित्रस्य निर्माणं च समर्थयति इति वार्ताः।